अथ तृतीयोऽध्यायः। अर्जुन उवाच, ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन, तत्किं कर्मणि घोरे मां नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे, तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्। श्रीभगवानुवाच, लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ, ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां। न कर्मणामनारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते, न च सन्न्यसनादेव सिद्धिं समधिगच्छति। न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत्, कार्यते हवशः कर्म सर्वप्रकृतिजैर्गुणैः। कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्, इन्द्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते। यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन, कर्मेन्द्रिये कर्मयोगम् असक्त स विशिष्यते। नियतं कुरु कर्म त्वं कर्म ज्यायोरि कर्मणः, शरीरयात्रापि च ते न प्रसिद्धयेद् कर्मणः। यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः, तदर्थं कर्म कौन्तेय मुक्तसङ्गसमाचर। सह यज्ञा प्रजा सृष्ट्वा पुरोवाच प्रजापति, अनेन प्रसविष्य त्वम् एष वोत्तिष्ठकां धुक। देवान् भावयतानेन ते देवा भावयन्तु वा, परस्परं भावयन्तः श्रेयपरमवाप्स्यथ। इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविता, तैर्दत्तान् प्रदायेभ्यो यो भुङ्क्तेस्तेन एव सः। यज्ञशिष्टाशिना सन्तो मुच्यन्ते सर्वकिल्बिषे, भुञ्जते ते त्वगं पापा ये पचन्यात्मकारणात्। अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसम्भव, यज्ञात् भवति पर्जन्यो यज्ञकर्म समुद्भवः। कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं, तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्। एवं प्रवर्तितं चक्रं नानुवर्तयति हय, अघायुरिन्द्रियारामो मोघं पार्थ स जीवति। यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव, आत्मन्येव च सन्तुष्ट तस्य कार्यं न विद्यते। नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन, न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः। तस्मात् सक्तः सततं कार्यं कर्म समाचर, असक्तो हाचरन् कर्म परमाप्नोति पुरुष। कर्मणेव हि संसिद्धिम् आस्थिता जनकादयः, लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि। यद्यदाचरति श्रेष्ठ तत्तदेवेतरो जनः, स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते। न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन, नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि। यदि अयं न वर्तेयं जातु कर्मण्यतन्द्रितः, मम वर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वशः। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहं, शङ्करस्य च कर्ता स्याम् उपहन्याम् इमा प्रजा। सक्ता कर्मण्य विद्वांसो यथा कुर्वन्ति भारत, कुर्याद् विद्वांस्तथा सक्त चीकीर्षु लोकसङ्ग्रहम्। न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां, जोषयेत् सर्वकर्माणि विद्वान्युक्तसमाचरन्। प्रकृते क्रियमाणानि गुणे कर्माणि सर्वशः, अहंकार विमूढात्मा कर्ताहमिति मन्यते। तत्ववित्तु महाबाहो गुणकर्म विभागयो गुणागुणेषु वर्तन्त इति मत्वा न सज्जते। प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु, तान् कृत्संविदो मन्दान् कृत्स्नविन्न विचालयेत्। मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा, निराशिर्निर्ममो भूत्वा युध्यस्वविगतज्वरः। ये मे मत्मिदं नित्यम् अनुतिष्ठन्ति मानवा, श्रद्धावन्तो न सूयन्तो मुच्यन्ते तेऽपि कर्मभिः। ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतं, सर्वज्ञानविमूढांस्तान् विद्धि नष्टान् चेतसः। सदृशं चेष्टते स्वस्या प्रकृतेर्ज्ञानवानपि, प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति। इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषो व्यवस्थितो, तयोर्नवश्मागच्छे तोरिस्य परिपन्थिनो। श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्, स्वधर्मे निधनं श्रेय परधर्मो भयावह। अर्जुन उवाच, अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः, अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः। श्री भगवान उवाच, काम एष क्रोध एष रजोगुण समुद्भवः, महाशनो महापाप्मा विद्येनम् इह वेरिणम्। धूमेनाव्रियते वह्नी यथा दर्शो मलेन च, यथोल्बेनाव्रतो गर्भ तथा तेनेदमावृतम्। आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवेरिणा, कामरूपेण कौन्तेय दुष्पूरेणानलेन च। इन्द्रियाणि मनो बुद्धि अस्याधिष्ठानमुच्यते, एतिर्विमोहयत्येष ज्ञानमावृत्य देहिनम्। तस्मात्त्वम् इन्द्रियाण्यादौ नियम्य भरतर्षभ, पाप्मानं प्रजहीयेनं ज्ञानविज्ञाननाशनम्। इन्द्रियाणि पराण्याहु इन्द्रियेभ्य परं मनः, मनसस्तु परा बुद्धे यो बुद्धे परतस्तु स। एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम्। ओम तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः।